एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सत्तारूढ दलानाम् प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य च मध्ये संसदः गतिरोधस्य अन्ताय सहकारी प्रकरणस्य अनुसन्धानार्थम् संसदीयानुसन्धान समितेः संघटनाय सहमतिः धृतास्ति। बाल्वा टारावर्तिनी प्रधानमन्त्री निवासे ह्य सायम् उपविष्टेन उपवेशेन संसदीयानुसन्धान समितिम् संघटयितुम् निर्णीतमस्तीति उपवेशे सहभागी नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। प्रमुख सचेतक पदीयो लेखकः समितिम् संघटयितुम् विधि न्याय संसदीय विषय मन्त्रिणा पदमगिरी इत्यनेन सर्वकारस्य पक्षतः सहजीकरणम् विधास्यते इति अवोचत्। प्रमुख सचेतक पदीयो लेखकः समितेः कार्यादेशः कार्यदलेन अद्य निर्मीयमाणोऽस्तीति असूचयत्। समितेः निर्माणस्य निश्चयेन सहैव अद्य संसदः उपवेशः सहजरूपेण अग्रे वर्धते इति प्रमुख सचेतक पदीयो लेखकः विश्वासम् व्यक्तवान्। उपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः, नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली, उप प्रधान गृहमन्त्री रवि लामिछाने चेती नेतृणाम् सहभागिता आसीत्। प्रमुख प्रतिपक्षणा नेपाली कांग्रेस दलेन सहकारी प्रकरणे संसदीयानुसन्धान समिते असंघटनम् यावत् संसद सञ्चालन नदीयते इति दृढता व्यज्यमाना आसीत्। तत्पूर्वम् प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य नेतृभिषः विमृष्टम् आसीत्। विमर्शने प्रधानमन्त्री प्रचण्डः संसदीय अनुसन्धान समितिम् संघटय्य अग्रे वर्धितुम् सहमतोभूतीति कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। विमर्शनस्य पश्चात् कांग्रेस दलेन उपस्थापितानाम् तिसृणाम् याचनानाम् विषये सत्ता सहकारी दलै सह अतिरिक्तम् विमर्शनम् विधाय कांग्रेस दलेन सह पुनः विमृक्ष्यते इति प्रधानमन्त्रिणा प्रोक्तम् अस्तीति प्रमुख सचेतक पदीयो लेखकः असूचयत्। विमर्शने प्रधानमन्त्रिणा सहितानाम् कांग्रेस दलस्य सभापतेः शेरबहादुर देउवा विधस्य, उपसभापतेः पूर्णबहादुर खड्का विधस्य, महामन्त्रिणः गगन कुमार थापा विधस्य, कृष्ण सिटौला इत्यस्य, रमेश लेखकस्य च सहभागिता आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते वर्तमानः राजनीतिकः गतिरोधः समाधानम् प्रति उन्मुखो वर्तते। नेकपा माओवादी केन्द्रस्य केन्द्रीय कार्यालये ह्य आयोजिते पुस्तक विमोचन कार्यक्रमे प्रधानमन्त्री प्रचण्डः विमर्शनस्य संवादस्य च माध्यमेन वर्तमानस्य अवरोधस्य अन्ताय आत्मना सर्वैः पक्षैः सह वार्ता विधीयमानास्तीति असूचयत्। कार्यक्रमे प्रधानमन्त्री प्रचण्डः स्वज्येष्ठस्य सप्तमे दिवसे सोमवासरे आत्मना संसदि विश्वासस्य मतम् ग्रहीष्यते। संख्यात्मक मतेषु पूर्वतः पृथक्त्वेऽपि आत्मना सदने विश्वासस्य मतम् प्राप्स्यते इति विश्वासम् अभिव्यनक। प्रधानमन्त्री प्रचण्डः संसदि प्रस्तुतान् नीति कार्यक्रमान् क्रियान्वेतुम् आयव्ययकस्य निर्माणम् जायमानमस्तीति सूचयन् नीति कार्यक्रमानुसारेणैव आगामिनः आयव्ययकस्य निर्माणाय ध्यानम् प्रदत्तमस्तीति अवोचत्। कार्यक्रमे नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः सम्प्रति राजनीतिक गतिरोधे विद्यमानेऽपि आगामिनि समये देश गतिमान् भविष्यतीति विश्वासम् व्यक्तवान्। सभामुख देवराज घिमिरे निगदति जनतायाः अभिमतम् आधृत्य निर्णयो भवति यत्र तादृशी संसद सर्वदा बद्धा भवितुम् न अर्हति। नेपाल पत्रकार महासंघस्य प्रतिष्ठान प्रदेश समितेः चतुर्थीम् साधारण सभाम् पत्रकारितायाः सामयिक विमर्शन विषयञ्चाधृत्य ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे सभामुख घिमिरे सदनस्य सञ्चालनाय सर्वेषाम् सहयोगः आवश्यको भवतीति अभाषत। सभामुख घिमिरे सर्वकारस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च पारिजीकरणेन सहैव महत्वपूर्णानि कानिचन विधेयकानि पारितीकृत्य वर्तमानाधिवेशनस्य निर्बाधरूपेण सञ्चालनस्य आवश्यकता अस्ति इत्यत्र बलं प्रादात्। सभामुखा घिमिरे अगदत् सदनस्य सञ्चालनाय सर्वै दलैः पत्रकारिता जगता अपि सहयोगी भूमिका निर्वोढव्या। कार्यक्रमे नेपाली कांग्रेस दलस्य नेता डाक्टर मिनेन्द्र रिजालः जननिर्वाचितैः नेतृभिः स्वकीयं कार्यं समीचीनं भवतीति दम्भेन निरंकुश भावनया च कार्ये विहिते सति लोकतन्त्रं सबलं भवितुं न शक्नोतीति समस्पष्टयत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा वैदेशिक वृत्तो वञ्चितानां नेपाली नागरिकाणां समस्या समाधातुं सर्वकारं अनुरोधा दि। नेपाली कांग्रेस दलस्य शुभेच्छुक संस्थायाः लोकतान्त्रिक वैदेशिक वृत्ति व्यवसायी संघस्य द्वादशीं साधारण सभां ह्य काष्ठमण्डपे उद्घाटयन् सभापतिः देउवा वैदेशिक वृत्त्या उपलब्धेन विप्रेषणेन देशस्य विभिन्नेभ्य क्षेत्रेभ्य लाभ जायमानो स्थिति अभासत। सभापतिः देवागदत् वैदेशिक वृत्त्युपार्जनाय गतानां नेपाली नागरिकाणां सुरक्षायै सर्वैः क्षेत्रैः दायित्ववायवीर भूत्वा कार्यं कर्तुं प्रवर्तनीयमिति प्रावोचत्। प्रधान न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठ ब्रूते न्यायपालिकया स्वस्य दायित्वं दायित्ववाहिना निर्व्यूढमानं वर्तते। पूर्व न्यायाधीश मञ्च नेपालस्य अष्टम्याः वार्षिक साधारण सभायाः अवसरे आयोजिते विदेह शासनस्य वर्तमानावस्था विषयके कार्यक्रमे प्रधान न्यायाधीश श्रेष्ठ विदेह शासनं मूलतः अनुभूतेः विषयोस्तीति उदैरयत्। विधेयरनुसारेण दायित्वस्य अपूरकानां व्यक्तिनाम अन्वेषणं विधेयमिति चर्चयन् प्रधान न्यायाधीश श्रेष्ठ विदेह शासनस्य प्रवर्धनाय न्यायाधीशेन न्यायपालिकया च सर्वदैव संवेदनशीलावीर भाव्यमिति अकथयत। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा निगदति संसद अवरोध राजनैतिक संकटस्य रूपेण न व्याख्येयः। ह्य काष्ठमण्डपे आयोजिते पुस्तक विमोचन कार्यक्रमे महामन्त्री शर्मा देशाभ्यन्तरे राजनीतिक संकटस्य स्थिति नास्ति इति चर्चयन् आर्थिकात् सामाजिकाच्च रूपान्तरणात् समृद्धिम् अधिगन्तुं सर्वैः एकीभूय प्रवर्तनस्य आवश्यकता अस्तीति अवोचत्। महामन्त्री शर्मा यस्मिन् कस्मिन् अपि दले यस्यां कस्यामपि व्यवस्थायां देशे विद्यमानः आर्थिकः संकटः वास्तविक समस्यायाः रूपेण विद्यमानोऽस्ति तस्य समाधानार्थं सर्वाणि राजनीतिक दलानि एकत्र स्थातुम् अन्वरुणत। इति समाचाराः।